न विद्यते, गीता गंगोदकं पीत्वा पुनर्जन्म न विद्यते इत्यपि अस्माभिः दृष्टमासीत्। तत्र विषय प्रयोजनमधिकारी सम्बन्धश्च पूर्वम् अस्माभिः दृष्टमासीत्। तत्र भागत्रयं वर्तते, कर्मकाण्डम् उपासनाकाण्डम् ज्ञानकाण्डम् इत्यादिकम् तदपि अस्माभिः दृष्टमासीत्। योगशब्दस्य तत्र त्रिधा तत्र प्रतिपादितमस्ति योगशब्दः, तत्रधा यत्यत् प्रतिपादितमस्ति तदपि अस्माभिः दृष्टमासीत्। प्रथमाध्यायस्य सम्मरि अस्माभिः दृष्टमासीत्। द्वितीयाध्याये श्रीकृष्णः अर्जुनं प्रति उपदेशं करोति, गतासून् अगतासूंश्च नानुशोचन्ति पण्डिताः, किमर्थं न अनुशोचन्ति इति सम्यक् प्रतिपादितमस्ति। अनन्तरं सत् असत्, देह देहि, शरीर शरीरि, शाश्वत अशाश्वत, आत्मा अनात्मा, एवम् एतयोर्मध्ये भेदः कः इति अतीव सम्यक् प्रतिपादितः। तत्र आत्मनः लक्षणमपि सम्यक् प्रतिपादितमस्ति, एवं तत्र तयोर्भेदः अस्माकं कृते सम्यक् ज्ञातमस्ति। अनन्तरं तावत् किमर्थं तत्र शोकं कर्तुं नार्हति इत्यपि अग्रे पौनःपुन्येन सः पुनः पुनः तत्र सम्यक् प्रतिपादयति। अनन्तरं स्वधर्ममार्गमनुसृत्य, एवं तत्र अतीव संक्षेपेण साङ्ख्ययोगं तत्र पीठिकां दत्त्वा, साङ्ख्ययोगस्य पीठिकां दत्त्वा अनन्तरं स्वधर्माचरणेन किं कर्तव्यं, स्वधर्माचरणरीत्या अपि तत्र अर्जुनेन किं कर्तव्यं, किं तेन पालितव्यम् इत्यपि प्रतिपादितमस्ति। लघुसाङ्ख्ययोगपरिचयः, अनन्तरं स्वधर्मपरिचयः, स्वधर्म आचरणेन कः उपयोगः, स्वधर्म अनाचरणेन को नष्टः, किं भवति इत्यपि तत्र सम्यक् प्रतिपादितम्। अकीर्तिः भवति, सम्भावितस्य चाकीर्तिः, मरणादतिरिच्यते इत्यादि वाक्यैः तत्र स्वधर्मप्रतिपादनं, स्वधर्माचरणस्य महत्त्वमपि उक्तमस्ति। स्वधर्माचरणानन्तरमेव कर्मयोगः किञ्चित् तत्र इन्ट्रोडक्षन् कृतमस्ति। स्वधर्मं कर्तव्यं चेत् किं कर्तव्यं, कर्मयोगस्य आचरणं कर्तव्यं। कर्मयोगः इत्युक्ते किं, कर्मणः लक्षणं किं, कर्म इत्युक्ते किं, तत्र योगवत् कथं कर्तव्यम् इत्यादिकं सम्यक् प्रतिपादितमस्ति। अनन्तरं कर्मयोगेन तत्र प्रयोजनं किं भवति, अभिक्रमनाशः नास्ति, प्रत्यवायः न विद्यते, स्वल्पमप्यस्य धर्मस्य महतोभयात् त्रायते इत्यादिकम् अस्माभिः सम्यक् दृष्टमासीत्। अनन्तरं तावत् तत्र कर्मयोगस्य फौण्डेशन् श्लोकं यदस्ति तदपि अस्माभिः दृष्टमस्ति। कर्मण्येव अधिकारः अस्ति, फलेषु कदापि अधिकारः नास्ति, अपि च कर्म यत् अस्माभिः क्रियते तत् फलहेतुः मा भूः, अपि च एवम् उक्ते सति तत्र जनाः किं चिन्तयन्ति, तर्हि चेत् अहं कर्म एव न करोमि, यदि फलं मास्तु चेत् किमर्थं कर्माचरणं कर्तव्यमिति। तत्रैव तदर्थमेव झटि चतुर्थे पादौ एव तस्मिन् श्लोके एव सः कृष्णः वदति, अकर्मणि ते सङ्गः मा अस्तु इति। किमर्थम् एवम् आचरणं कर्तव्यम्, यतः बुद्धियोगात् कर्मयोगं तु तत्र काम्यकर्म यदस्ति तत् बुद्धियोगात् दूरेण अवरं वर्तते। बुद्धियोग कर्म कथं कर्तव्यं, कर्म एस् पर् द वर्णाश्रमधर्म कर्म आचरणं कर्तव्यं, तर्हि फलं किं कर्तव्यं, फल अनपेक्षतया कर्तव्यं, तर्हि अहं किञ्चित् अश्रद्धया करोमि चेत् किं भवति, नैव तादृशं नैव कर्तुं शक्यते, यतः योगः कर्मसु कौशलं, सर्वदा कौशलत्वेन विद् है लेवल् आफ् एक्सलेन्स्, वितौट् एनी अपेक्षा फार् द फ्रूट्स्, विद् डिटाच्ड् भावना, द कर्म विच् इस् बीन् अलोकेटेड् टु अस् शुड् बी डन्। दिस् इस् द समरी आफ् आल् द रिलेटेड् श्लोकास् फ्रम् कर्ण्येवाधिकारः टिल् तत्र यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति तदा श्रोतव्यस्य श्रुतव्यस्य च निर्वेदं गन्तासि। अनन्तरं तावत् यदा ते श्रुतिप्रतिपन्ना बुद्धिः निश्चला समाधौ अचला स्थास्यति तदा योगमवाप्स्यसि। टेकिङ्ग् दीस् श्रुतिविप्रतिपन्ना बुद्धिः अण्ड् समाधौ अचला स्थितप्रज्ञता कान्सेप्ट् इस् बीङ्ग् इण्ट्रड्यूस्ड्। तत्र अर्जुनः पृच्छति स्थितप्रज्ञस्य भाषा का, स्थितदीः किं प्रभाषेत, किम् आसीत, किं रजेत, तदर्थमेव तत्र उत्तरं ददाति श्रीभगवान्। यदा तत्र यः कोऽपि मनुष्यः सर्वान् मनोगतान् कामान् प्रजहाति, लक्षणं वन ये लक्षणं एकं प्रथमं लक्षणं सर्वान् मनोगतान् कामान् आल् एक्स्टर्नल् डिज़ैर्स् विच् ईवन् हेव् एन् आपर्चुनिटि टु कम् टु द मैण्ड् न तु निश्चयकामान् न तु कर्मफलान् त्याग आफ् द कर्मफल इस् संथिङ्ग् डिफ्रेण्ट् अपेक्षा आफ् हेविङ्ग् दट् कामना टु द कर्मफल इस् संथिङ्ग् डिफ्रेण्ट् एण्ड् निश्चयकाम सङ्कल्परीत्या एतदेतत् आवश्यकम् इति निश्चयकाम डिफ्रेण्ट् दिस् इस् अ लेवल् हैयर् देन् दट् सर्वान् मनोगतान् कामान् यदा प्रजहाति वि सा दट् वाट् इस् द डिसड्वाण्टेज् आफ् मनोगतान् कामान् अन्लेस् अण्ड् अण्टिल् दे आर् फुल्फिल्ड् वि आर् क्रियेटिङ्ग् मल्टिपल् फ्यूचर् बर्त्स् बै दीस् मनोगतान् कामान् देर् फोर् यदा सर्वान् मनोगतान् कामान् एकः प्रजहाति दट् इस् लक्षणं वन् लक्षणं टु क्युमुलेटिव् लक्षणं यदस्ति अनन्तरं किं कर्तव्यं सः मनोगतान् कामान् प्रजहाति अनन्तरं किं कर्तव्यम् आत्मनि एव आत्मना तुष्टः भवितव्यं तेन बै हिज् आत्मा इन् हिज् आत्मा हि हेस् टु बि साटिस्फैड् अण्ड् वन् हू इस् आल्वेस् हेपी वित् दट् तादृश कण्टेण्ट्मेण्ट् यदा अस्ति तदा स्थितप्रज्ञः तदोच्यते वी टुक् लाट् आफ् एक्साम्पल्स् आफ् जडभरत सदाशिवभ्रमेन्त इत्यादि जनान् शङ्कराचार्य अनन्तरं वि सा द एक्साम्पल्स् हौ दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितदीर्मुनिरुच्यते त्री स्माल् लक्षणास् अगेन् गिवन् कः स्थितदीः हू इस् दट् मुनि हू केन् बि काल्ड् स्थितधीः यतिः यतिः मुनिः कः स्थितदीः इति तत्र आह्वातुं कः तत्र योग्यः भवति यः दुःखेषु अनुद्विग्नमनाः दुःख सिचुवेशन्स् यदा भवति तदा किञ्चिदपि उद्विग्नं न भवति तस्य मनसि अपि च सुखेषु विगतस्पृहः सुख सिचुवेशन्स् यदा भवति तदा अपि विगतस्पृहः अस्ति अनन्तरं तावत् वीत त्यक्त राग भय क्रोध त्यक्तः यः भवति सः मुनिः स्थितदीः इत्युच्यते एण्ड् आल् दीस् वी सा दट् all these things yad bhavati these are all the natural inherent qualities of a sthita prajna it is not that he is acting only externally like this yah sarvatra anabisnehah tattat prapya shubha shubham nabhinandati na dveshti tasya prajna pratishtita yah sarvatra yah purushah sarvatra anabisnehah bhavati anabisnehah sneha snihyata snihyata is that attachment the attachment which is there tadrusha snihyata yadasti yah sarvatra anabisnehah shubha shubham prapya na abhinandati na dveshti shubham prapya na abhinandati does not rejoice on shubha prapti does not hate on ashubha prapti tadrushasya prajna pratishtita bhavati so the first 2-3 shlokas were on definition the other shlokas were on the implementation ritya then again just to explain it further and explain the difference and show that sitapragnyata does not mean sitting in one place and not doing anything inaction does not mean sitapragnyata with all due activities and with all the samsara karma charanam with all these when still the mind is not affected tadrusha स्थितिरेव स्थितप्रज्ञता इति तत्र सम्यक् प्रतिपादितमस्ति वि केन् आल्सो टेक् सम् एक्साम्पल् फ्रम् श्रीमद् रामायणस्य सुन्दरकाण्डे तत्र हनुमान् तत्र अन्तःपुरं प्रति गच्छति तत्र सर्वाः तत्र स्त्रियः याः सन्ति ताः सः पश्यति तत्र विपरीत अवस्थायां पश्यति तदा सः स्वयं चिन्तयति मनो हि हेतुः सर्वेषाम् इन्द्रियाणां प्रवर्तने तत्र यदि मनः तत्र निश्चला अस्ति चेत् तत्र दोषः नास्ति इत्येव सः चिन्तयति अन्यच्च स्वामिकार्यार्थं सः तत्रवान् न तु अन्यकारणेन इत्यादिकं सः वदति एवमपि तत्र उदाहरणं स्वीकृत्य अस्माभिः तत्र चिन्तयितुं शक्यते तत्र कर्म कर्तव्यं स्वामिवचनं कर्तव्यमेव तस्मिन् मध्ये अपि यदा अस्माकं मनः आत्मन्येव आत्मना तुष्टः भवति तदा प्रज्ञा प्रतिष्ठिता भवति ईवन् देन् वेन् द मैण्ड् इस् नाट् शेकन् वेन् द वेन् तत्र बुद्धिः तावत् निश्चला भवति समत्वरीत्या भवति विच् इस् अनफेक्टेड् तदा प्रज्ञा प्रतिष्ठिता तदा स्थितप्रज्ञता अस्ति इति we have got the clarifications because people generally tend to misunderstand saying sita prajna means a person who is living in the Himalaya having sacrificed everything and sitting and doing tapas or dhyanam only he can be a sita prajna naiva in day to day lives, in day to day transactions, doing our allocated roles of either a housewife or our whatever transactional works which we are doing, still the sthita prajnata can be maintained and it has to be practiced and maintained over the period. Yada samharate chayam, which is why he gives the example of kurmonganiva sarvashah. Tatra indriyanam onslaught yada bhavati, indriyanam onslaught bhavati chete, tatra angani, tatra we have to samharate, we have to just pull it inside. But when we have to do the karma charanam, like Hanuman, when he had to go to the antapura and search for Sita, tada he had to use the sense organs, he had to walk through the place and see all that, but his mind was totally detached from all these things and did not even get shaken even for a single second also, or fraction of a second also, his mind was unaffected. Tarhi eva manohi hetu sarvesham indriyanam pravartane iti saha uktva, he still shows the sita prajnata, what he maintains, still being in the samsara sagara. A great lesson for all of us also, that while doing all the transactions which have been allocated to the perfection, still maintaining that unshaken mind within us, we can still achieve towards sita prajnata. Evam asmabhi drishtam asti vishaya vinivartante niraharasya dehinah rasavarjyam rasopyasya param drishtva nivartate. Tarhi tatra this sloka can be interpreted in a little bit different way, wherein we saw that sadhakasya sthita prajnasya cha bhedaha kaha. Sadhakaha kim karoti sarvam tavate yati external indriyaha external vishayaha santi tat sarvam saha sacrifice karoti. A sadhaka just keeps all the items of materialistic affecting ones, he keeps it away from him. But a sthita prajnata inherently eva asavarjam rasopyasya, inherently api he is not he forgets the nature, the feel, the like, the type, everything he forgets about it itself, which is why in the previous shloka when we saw dukkesh vanudvigna manaha, it is an inherent state of affair for him wherein his mind is totally unperturbed by dukkha. It does not want anything in sukha, sukeshu vigataspraha vitaraga bhayakrodaha. These are not like he is not taking on these roles and trying to enact or do this, but those are inherent qualities which are there inside a sthita prajna, which is why vishaya vinivartante niraharasya dehinah, all the vishayas are kept dura by a sadhaka and he tries to get that sadhana marga. But for a sthita prajna, inherently itself all these do not affect him also, and when he is doing this, when he is in a sthita prajna state, rasavarjam rasopyasya, both the rasa and the rasa object, both he kind of his longing to that object also ceases, and the thought of that object, the sense of the object, the feel, the longing, everything is totally removed. Tadrushasya eva sthita prajna iti vaktum shakyate. Yatatohyapi kaunteya purushasya vipaschitaha indriyani pramathini haranti prasabam manaha. 60-61 we saw that 60 gives a problem in hand, 61 gives the solution to it. Yatataha means sadhaka, a sadhaka who is prayatnataha, who is doing effort, prayatnam karoti tadrushasya sadhakasya yatataha api he kaunteya tadrushasya vipaschitaha api. Vipaschitaha, Sunilam ma'am had asked for the meaning. Vipaschitaha tatra viprakrishtaha viprakrishtaritya yaha drashtum shakyate yaha atra pashyati viprakrishtaritya yaha pashyati, which means farsightedness. Yasya far-sightedness asti saha vipaschitaha iti tatra vyutpatti dattam asti param phalita artham yadi svikurmaschete tatra panditaha va sadhakaha van yaha jnanavan ityapi svikartum shakyate. Yetadeva tatra vipaschitaha iti padasya tatra vyutpatti viprakrishtataya yaha pashyati yaha yena drashtum shakyate yaha tatra dirghakala dirghadarshi bhavati saha vipaschit iti yathartaha panditaha iti pitarthaha bhavati. Yatato hi kaunteya purushasya vipaschitaha indriyani pramathini haranti prasavam manaha. Tatra indriyani yadasti pramathini indriyani prasabham hati. Forcibly all these indriyas will pull us away from the sadhana marga. Even of a greatest of jnanavan, the person has studied everything, he knows everything, sarve vayam janimaha. Tatra krodham tavat yadasti krodha yadasti tatra kevalam nashaya bhavati. Anger is always for dukkha, कामना इज ऑलवेज फॉर दुख वी नो ऑल दिस अस्माभिः तत्र पठितमस्ति अस्माभिः ज्ञातमस्ति अर्थावगमनं कृतमस्ति परं यदा इम्प्लिमेंटेशन मध्ये फील्ड मध्ये आगच्छति तदा सर्वं तावत् झटिति इन अ सेकेंड एवरीथिंग इट्स फॉरगॉटन एंड वी गिव वे टू द रियास विच फोर्सबली ब्लस इन टू दोस सिचुएशंस तादृश यदा भवति when that is happening and also when the sadhaka is trying to do the sadhana the famous story of that sadhaka who sat to do some sadhana then when he was sitting there somebody woman passes across there and so he closes his eyes then he hears somebody's the sound of the pail yadasti tatra kankana shabdam yadasti tat shruti therefore he closes his ears he puts some cotton buds in the ears anantaram tavat tatra tasyaha mahilayaha tatra mallika champaka pushpam yad sadarati tasya sugandha agacchati so he closes his nose and all these he closes and he sits for sadhana he tries to prepare himself for the sadhana then after 10-15 minutes he does not get any of these external inputs and he suddenly thinks his mind starts thinking where is that person she did not come at all so his mind starts dwelling upon it evam tatra indriyani pramathini haranti prasavam manah tadrsha ritya sadakah upavishati chedapi it forcibly pulls away again what is the only solution to it we have again and again spoken about the solution because that is very important tani sarvani sayamya yukta asita matparah powerful word implementation word matparah mamaparah matparah mama ityukte kah tamaparah paramapada parah paraparah परः कः परवासुदेवः परवासुदेवः यः अस्ति तत् परः यदा अस्माकं मनः भवति सर्वाणि इन्द्रियाणि संयम्य सो जस्ट बाय डूइंग एन एक्सटर्नल कंट्रोल ऑफ सेंसेस इज नॉट इनफ फर्स्ट कंट्रोल द सेंसेस पुट अवे द मटेरियलिस्टिक ऑब्जेक्ट्स देन स्लोली टर्न द माइंड टुवर्ड्स द परमात्मा सो दट वेन्स दट इज ऑक्युपाइड इन द परमात्मा How should it be occupied? Either through satsanga, sadbhajana, sadkarya, sadshravana, sadkathashravana, sadgita, dhyana, gita, patana, gita, parayana, ityadi vedanta granthaha, ityadi sadvishaya sambandhi kriyaha, no chete tatra karmacharanam, nitya pujadikam, sandhyavandanadikam, nitya parayanadikam, samaja sevadikam, yadasti, paropakaradikam, एतस्मिन् मध्ये यदा वयं सर्वे अस्माकं मनः प्रवर्तनां कुर्मः वेन् वि टर्न् अवर् मैण्ड् इन् टु आल् दीस् तदा आल् द एक्स्टर्नल् कामना यदस्ति तत् सर्वं दूरे गच्छति एवं तानि सर्वाणि संयम्य युक्त आसीत् मत्परः यस्य इन्द्रियाणि वशे भवन् तस्य प्रज्ञा प्रतिष्ठित भवति एवं वि सा आल् दिस् इमीडियट्लि सा द अनर्थ परम्परा द डोण्ट् आफ् इट् Yes, that is a very good tip. I think the Sudha Mami has this problem. But yeah, it crashes sometimes in open meetings because of that flash problem. Google Chrome, we are also using Google Chrome or Firefox should help. Thanks, that is a very helpful tip actually. Thanks. We will tell Sudha Mami because she's been logging in and logging out for a long time. Thanks for that. Okay. Aradnartha Parampara Uktasti ध्यायतः विषयान्पुंसः सङ्गः भवति सङ्गात् कामः कामात् क्रोधः क्रोधात् सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् प्रणश्यति अनर्थपरम्परा द सेल् आफ् अनर्थ आल् स्टार्ट्स् फ्रम् ध्यायतः जस्ट् बै थिङ्किङ्ग् आफ् ध्यायतः सो ध्यानं यदा कुर्मः तर्हि तदा एतत् contemplating on the material objects getting dhyayatah vishayan pumsah sangasteshu pajayate when we keep on thinking about that maya tatra kar kretavyam kar svikartavyam iti tara asmabhi chintyate chete dhyayat sangah an attachment comes to that we start thinking contemplating about it the attachment comes from that sangah the deep desire to get it passion kamaha is the here is that passion wherein yatharth ritya by hook or crook we should get it that kind of passion to attain that car iti vastu iti asti chete tad apin madhya agacchati yada tat purnaha bhavati va apurnaha bhavati krodha bhavati how does this pan we saw prathamataya कस्मिन् साधारण चतुश्चत्रिका भवति अनन्तरं तावत् तत्र अतीव उन्नत गुण चतुश्चक्रिका भवति तस्मिन् मध्ये इतर अंशाः तत्र अपेक्षन्ते तदनन्तरम् एवमेव गच्छति गच्छति उपरि 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 गच्छति अस्माकम् आशा यदा बहु उपरि गच्छति तदा तत्र आशायाः पूर्णता न भवति तदा रोधः आगच्छति एवम् एनी पॉइंट ऑफ टाइम द कामना वेदर इट इज फुलफिल्ड और अनफुलफिल्ड वी कैन हैव अ स्मॉल डिसीजन थ्री फुलफिल्ड द कामना ने इंक्रीजेस इट गोज टू द नेक्स्ट लेवल कीप्स गोइंग टू द नेक्स्ट लेवल अंटिल देर इज अ लेवल वेन वी आर नॉट एबल टू फुलफिल इट वंस इट इज नॉट फुलफिल्ड देन क्रोधः भी जायते सम्मोह सम्मोह द डिल्यूजन विच हैपन्स इन द माइंड दैट्स वन स्मृति विभ्रमः भवति स्मृति विभ्रम मेमरी लॉस हाउ डिड वी हाउ डू अंडरस्टैंड दिस वेन वी हैव सम पर्सन विद अस हुम हू हैज डन लॉट ऑफ गुड थिंग्स टू अस परम एट दैट मोमेंट वेन दे डू नॉट रिएक्ट एज वी एक्सपेक्ट विद देम दे डू नॉट प्रोवाइड द काइंड ऑफ वांट व्हाट वी वांट तातेन दास्यन्ति तदा किं भवति तदा स्मृति विभ्रम वी फर्गेट ऑल द गुड डन टू बाय देम वी फर्गेट ऑल द गुड विच इज बीइंग डन अनन्तरं स्मृतिभ्रंशात् बुद्धिनाशः अवर् केपासिटी टु डिसैड् वाट् इस् गुड् वाट् इस् राङ्ग् हू इस् रैट् हू इस् राङ्ग् तदा आर् दीस् पीपल् रैट् ईस् दिस् द रैट् आब्जेक्ट् वाट् वी हव् टु गेट् शुड् ऐ इवन् गो फार् दिस् टु दिस् एक्स्टेण्ट् शुड् ऐ इवन् स्ट्रैव् फार् दिस् आर् शुड् ऐ डू सम्थिङ्ग् एल्स् एवं यत् तत्र आल् द विवेकप्रज्ञा यदस्ति तत्र विवेकप्रज्ञा सर्वं नष्टः भवति बुद्धिनाशः विवेकप्रज्ञायाः नाशः भवति सुधा मामी प्रॉब्ली यू कैन ट्राई यूजिंग गूगल क्रोम और यू कैन यूज फायरफॉक्स और एनी अदर काइंड ऑफ ब्राउजर विच इज इवन स्वाति वाज बीइंग ओके शी कनेक्शन अगेन बुद्धिनाशात प्रणश्यति बुद्धिनाशात तत्र नाशः भवति एवं दिस इज व्हाट हैपेंस व्हाट इज द ऑपोजिट श्लोका फॉर दिस Again and again, there is always an advantage of telling the shloka every time. Even one of Pune and Ashtapeshan and I am taking that. Also, we are again repeating Satsangatve Nissatvam, Nissangatve Nirmohatvam, Nirmohatve Nischalatatvam, Chalatatve Jeevan Muktihi. This is the don't shloka, the do shloka, we have it in this thing. Immediately, even in 64, 65, let us take the 64th shloka. Tatra api, what should be done, iti samyak dattamasti. We have seen all these, the grammar part and the pada parichayam, if we finish till 63, let us reduce ourselves to shloka 64.
Ragadvesha viyuktaistu vishayanindriyaischaran atmavashyervidheyatma प्रसादमधिगच्छति तत्र श्लोकं द्विवारं पठन्तु कर्तृकर्म क्रियान्वेषणं कुर्वन्तु कर्तृपदम् इस् अ वेरि नैस् वर्ड् चिन्तयतु सिनानिमस् वर्ड् फार् स्थितप्रज्ञा इस् द कर्तृपदम् सरलवाक्यं किं कर्तृ कर्म क्रिया त्री वर्ड्स् इफ् यू केन् गेट् वाट् विल् दट् बि आत्मवश्यैः इस् द करणम् उपकरणं तत् कर्तृपदः कर्तृपदं किं कः कः किं करोति डाश् 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 द्वितीय आत्मवश्यैः सम्यगस्ति प्रारम्भं कर्तुं शक्यते तत्रापि विधेयात्मा करेक्ट विधेयात्मा प्रसादम अधिगच्छति सिंपल सेंटेंस विधेयात्मा प्रसादम अधिगच्छति वाक्यम एतावदेव अस्ति विधेयात्मा विधेयात्मा कः विधेयात्मा इत्युक्ते स्थितप्रज्ञः तावदेव नथिंग मच विधेयात्मा विधेयात्मा प्रसादम अधिगच्छति विधेयात्मा तिम अधिगच्छति संतुष्टिम अधिगच्छति परमानंदम ब्रह्मानंदम यदस्ति तत् तादृश आनंदम अधिगच्छति प्राप्नोति विधेयात्मा प्रसादम अधिगच्छति स्थितप्रज्ञः परमानंदम आनंद अधिगच्छति प्राप्नोति विधेयात्मा प्रसादम अधिगच्छति कथम अधिगच्छति सः हौ इति पृष्ठे सति उत्तरं तत्र अस्ति आत्मवश्यैः रागद्वेषवियुक्तैः इन्द्रियैः विषयान् चरन् कथं चरति सः We saw the examples of, again and again, we have been seeing examples of either Jnaneshwar, Tukaram, Shankaracharya, Ramanujacharya, Madhvacharya, all these great people, they very clearly knew that Brahma Satya, Jagan Mithya. There was no reason for them to get again and again, keep on working in this samsara sagara, going from place to place, calling people. Even today, if we can see lot of people who are still doing all these kind of things. For example, our Guru, Srimati Anantalakshmi Mahabhaga Asti, Sa Api Atma Jnani Asti, she is also a very quite realized soul. There is no need for them to involve themselves into this laukika jagat paramapi paropakarartham va jana uddharanartham jana sevart for the sake of bringing people upwards for the upliftment of others yadate yadyat karyam kurvanti they have to do the work but while doing the work how do they do the work atmavashyaihi ragadvesha viyuktaihi indriyaihi vishayan charanti te sarve kim kurvanti tatra free from all the ragadvesha atmavashyaihi they control the senses tatra atma controls the senses indriyani prasavam na haranti मनः इन्द्रियाणि सबं न हरन्ति परम् आत्मवश्यैः तत्र ते विषयान् चरन्ति दे डू यूस् द मेटीरियलिस्टिक् वाट् एवर् आब्जेक्ट्स् आर् देर् दे डू यूस् द अड्वाण्टेजस् बेनिफिट्स् एण्ड् दे डू द आक्टिविटीस् परं वेन् दे डू द आक्टिविटीस् आत्मवश्यैः विधेयात्मा तत्र एतत्र कार्यं कुर्वन्ति अनन्तरं प्रसादम् अधिगच्छति तत्र पश्यामः एकवारम् अत्रापि पश्यामः पदच्छेदः रागद्वेषयुक्तैः तु विषयान् इन्द्रियैः चरन् आत्मवश्यैः विधेयात्मा प्रसादम् अधिगच्छति अन्वयं पश्यामः विधेयात्मा तु विधेयात्मा वश्यमनस्कः स्थितप्रज्ञः साधकः यः अस्ति यस्य आत्मविधेयः फुल्लि कण्ट्रोल्ड् भवति यस्य आत्मा मनः कण्ट्रोल्ड् भवति सः किं करोति रागद्वेषवियुक्तैः रागद्वेष अवर्षन् अट्राक्षन् लव् हेट् यद्यदपि अस्ति तत्सर्वं रागद्वेष द रैट् वर्ड् इस् बीङ्ग् यूस्ड् अगेन् हियर् राग हेज़् एन् आपोसिट् द्वेष परं यदि वयं प्रेम इति पदस्य उपयोगं कुर्मः तर्हि तत्र प्रेम इति यदस्ति परमानन्दोपरि परमात्मोपरि यत्र प्रेमभावः अस्ति तत्र विरुद्धपदं नास्ति तत्र एवं लव् यदा अस्ति तत्र द डिवैन् लव् विच् इस् देर् तस्य विरुद्धपदं न भवत्येव प्रेमस्य केवलम् आनन्दं भवत्येव एवं राग आपोसिट् इस् द्वेष रागद्वेष वियुक्तैः आत्मवश्यैः आत्मवश्यैः स्व आत्मना वशीकृताः वशीकृतानि कानि वशीकृतानि भवन्ति इन्द्रियाणि वशीकृतानि भवन्ति स्व आत्मना बै देर् ओन् सेल्फ् इन्द्रियाणि द इन्द्रियास् आर् वश्यैः आर् बीङ्ग् फुल्लि कण्ट्रोल्ड् एण्ड् टेम्ड् बै द आत्मा इट् सेल्फ् तादृशपुरुषाः किं कुर्वन्ति फस्ट् विधेयात्मा हौज विधेयात्मा रागद्वेषवियुक्तैः आत्मवश्यैः इन्द्रियैः भवति अनन्तरं किं करोति सः विषयान् तत्र विषयान् चरन् विषयान् विषया मीन्स् आल् द आब्जेक्ट्स् मेटीरियलिस्टिक् आब्जेक्ट्स् विच् आर् देर् अरौण्ड् हिम् तत्सर्वं चरन् एञ्जायिङ्ग् अनुभूयमानः सः प्रसादम् अधिगच्छति प्रसादं तत्र सन्तोषम् आनन्दम् अधिगच्छति सः एवमेव भवति आनन्दम् अधिगच्छति सः सम्यक् श्रूयते किल आनन्दम् अधिगच्छति एवं भवति तत्र विधेयात्मा सितप्रज्ञः विधेयात्मा रागद्वेषवियुक्तैः प्रतिविरोधशून्यैः आत्मवश्यैः स्व अधीनैः स्वाधीनं भवति तत्र स्वाधीन त्रिविधचेतना इत्युक्तमस्ति किल स्वाधीन इन्द्रियैः तत्र शब्दादीन् विषयान् सर्वान् चरन् अनुभूयमानः सः तत्र प्रसादम् अधिगच्छति प्रसादं तत्र सः सन्तोषं सन्तुष्टिम् आनन्दम् अधिगच्छति प्राप्नोति
ज्ञातं किल. एवम् एकवारं पश्यामः तत्र किञ्चित् स्क्रीन् मध्ये प्राणमस्ति, अग्रे न गच्छति, तत्र स्क्रीन् अग्रे न गच्छति. स्वयं तत्र अस्माकं सकाशे यद् नोट्स् अस्ति तत् स्वीकृत्य पश्यन्तु. आत्मवश्यैः विधेयात्मा प्रसादम् अधिगच्छति. तत्र यदि पश्यामश्चेत् एकवारं पदपरिचयं पश्यामः, पदपरिचयं कुर्मः. तत्र नोट्स् अस्ति चेत् अग्रिम अग्रिम पुटम् एकवारं पश्यतु. तत्र यत्र पदपरिचयः पदच्छेदः दत्तमस्ति, पदपरिचयः विधेयात्मन् विधेयात्मा, विधेयात्मन् शब्दः विधेयात्मा, विधेयात्मन् नकारान्तःपुल्लिङ्गप्रथमेकवचनं, रद्वेषवियुक्तैः अकारानपुंसकलिङ्गतृतीयाबहुवचनम्, आत्मवश्यैः इन्द्रियैः सर्वं तावत् तृतीयाबहुवचनं, विषयान् चरन् विषयान् अकारान्तःपुल्लिङ्गः द्वितीयाभक्ति बहुवचनं, विषयान् चरन् चरत् शब्दः, चरत् शब्दः तकारान्तःपुल्लिङ्ग प्रथमैकवचनं, चरत् प्रसादं द्वितीयाभक्ति एकवचनं, अधिगच्छति अधिगच्छति अधि उपसर्गपूर्वक गमलृधातोः गमलृगतौ परस्मैपदी भ्वादिगणः लट्लकार प्रथमपुरुष एकवचनं अधिगच्छति. पूर्वमेव अस्माभिः गच्छति इदमस्ति अधिगच्छति. एवं पदपरिचयं पदपदार्थपरिचयः.
सेल्फ टोल्ड मैन मूविंग अमंग्स तत्र तु इति पदमस्ति, तु द डिफरेंशिएटर एंड वी हैव सीन मेनी प्लेसेस यूज ए वर्ड तु और ही विच इज देयर गिव्स द डिफरेंशिएटर बिटवीन द प्रीवियस श्लोकास एंड द नेक्स्ट. एवं द डोंट्स ध्यायः विषयान् पुंसः इज द डोंट which should not be done, do which is there, the do what all we should do, tat shloka 64-65 madhye samyak pratipaditam asti. Evam the self controlled man moving among the objects with senses and restraint and free from attraction and aversions, he attains tranquility, the peace yadasti tat he attains it. Sandhihi raga dvesha viyuktaihi tu visarga sakara adesha indriyaihi charan sakara आदेश अनन्तरं च्युत्त सन्धि भवति, इन्द्रियैश्चरन् भवति. आत्मवश्यैः विधेयात्मा विसर्गरेफ रागश्च द्वेषश्च रागद्वेषौ द्वन्द्वः. तत्र यदि वयं शाङ्करभाष्ये अपि पश्यामश्चेत् तत्र रागद्वेषवियुक्तैः रागश्च द्वेषश्च रागद्वेषौ तत्पुरस्सरा हि इन्द्रियाणां स्वाभाविकी प्रवृत्तिः. The इन्द्रियास् हेव् अ स्वाभाविकी, द इन्हरेण्ट् क्वालिटि आफ् सेन्सस् किमस्ति, to dwell upon raga dvesha, that is their inherent quality. We have to remove them from their inherent quality and bring them to a different new quality, which is why it is so difficult. Tadartham eva, which is why Shankara says ragascha dveshascha raga dveshau tat purasarahi indriyanam swabhaviki pravattihi tatra yaha mumukshu bhavati saha tabhyam vyuktaihi atmanah vashyani vashi bhutani taihi shrotradibhi avarjaniyan upalabhamanah vidheyatma saha prasadam प्रसन्नता स्वास्थ्यम् अधिगच्छति प्राप्नोति, विच इज वाट शर्सेस. एवं तत्र इन्द्रियाणां स्वाभाविकी प्रवृत्तिः इस् टु रिसैड् आन् राग द्वेष काम क्रोध इच्छा द्वेष इत्यादिकं. देर् फोर् वी हेव् टु फोर्सिबली ब्रिङ्ग् दम् बेक् टु द टु अ डिफरेण्ट् स्टेट् आफ् मैण्ड् विच इस् नाट् देर् नेचुरल् स्टेट् आफ् अफेर्स्. एवं रागद्वेषैः रागश्च द्वेषश्च रागद्वेषौ द्वन्द्वसमासः, रागद्वेषां वियुक्ताः तैः तृतीया तत्पुरुष आत्मनः वश्यानि, यत् आत्मनः वश्यं भवति तत् आत्मवश्यं, तानि आत्मनः वश्यानि आत्मवश्यानि तैः आत्मवश्यैः इन्द्रियैः. एवं तत्र नपुंसकलिङ्गे भवति इन्द्रियाणि तैः इन्द्रियैः, आत्मवश्यैः इन्द्रियैः. विधेयात्मा, विधेयः आत्मा यस्य सः, यस्य आत्मा विधेयः, विधेयः अण्डर् कण्ट्रोल् अण्डर् डिसिप्लिन् टोटलि अण्डर् डिसिप्लिन्ड् अप्रोच् विधेयः यः भवति विधेयात्मा विनयरीत्या अण्डर् सरेण्डर् सरेण्डर् टु द आल्मैटि यदा भवति विधेयः विनयः इत्यपि तत्र अर्थः अस्ति. विनयः विनयः इत्युक्ते किम् अहङ्काररहितः, अहङ्काररहितः कदा भवति शरणागतः यदा भवति. शरणागतः कस्मिन् उपरि शरणागतिः, तत्र भगवदुपरि भगवत् समीपे शरणागतिः यदा प्राप्नुमः तदा विधेयः भवति विधेयात्मा. दट् वर्ड् इट् सेल्फ् आक्चुलि गिव्स् आल् द सोल्यूशन्स्. विधेयात्मा विधेयः आत्मा यस्य सः विधेयात्मा. चर् धातोः शत्रुप्रत्ययः वर्तमानकृदन्त चरन् इति अस्ति. वियुक्तः
ವಿ ಉಪಸರ್ಗಪೂರ್ವಕ ಯುಜಿರ್ ಧಾತೋ ಕ್ತ ಪ್ರತ್ಯಯ ಭೂತಕೃದಂತ ವಿಯುಕ್ತ. ಏವಂ ತತ್ರ ವ್ಯಾಕರಣ ಭಾಗಃ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಮಸ್ತಿ. ಸೊ ದ ಫಸ್ಟ್ ಆಫ್ ದ ಡು ಕಥಂ ಭವಿತವ್ಯಂ ಕಥಂ ನ ಭವಿತವ್ಯಂ ಇತಿ ಧ್ಯಾಯತಃ ವಿಷಯಾನ್ ಪುಂಸಃ ಮಧ್ಯೆ ದತ್ತಮಸ್ತಿ. ತರ್ಹಿ ವಿಧೇಯಾತ್ಮ ಕಿಂ ಕರೋತಿ. ವಿಧೇಯಾತ್ಮ ಆತ್ಮವಶ್ಯೈಃ ರಾಗದ್ವೇಷ ವಿಯುಕ್ತೈಃ ಇಂದ್ರಿಯೈಃ ವಿಷಯಾಂಚರನ್ ಪ್ರಸಾದ ಮರಿಗಚ್ಚತಿ. ಅಗೇನ್ ದಿ ಶ್ಲೋಕಾಸ್, ವಾಟ್ ವಿ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡ್ ಫ್ರಮ್ ದಿ ಶ್ಲೋಕಾಸ್, ದೀಸ್ ಆರ್ ದ ಬೆಂಚ್ ಮಾರ್ಕ್ ಶ್ಲೋಕಾಸ್. ದ ಬೆಂಚ್ ಮಾರ್ಕ್ ಶ್ಲೋಕ ಯತ್ ಭವತಿ, ಆಲ್ ದೀಸ್ ಆರ್ ದ ಒನ್ಸ್ ವೇರ್ ಹ್ಯಾಸ್ ದ ಸಾಧಕ, ವೇರ್ ಹಿ ಹ್ಯಾಸ್ ಟು ರೀಚ್. ಬಿಕಾಸ್ ಮಧ್ಯೆ ಮಧ್ಯೆ ಇನ್ ದ ಸಾಧನ ವಾಟ್ ಹ್ಯಾಪನ್ಸ್ ವೆನ್ ವಿ ಆರ್ ಏಬಲ್ ಟು ಕಂಟ್ರೋಲ್ ಒನ್ ಆರ್ ಟು ಅಂಡ್ ವಿ ಆರ್ ಏಬಲ್ ಟು ಸ್ಮಾಲ್ ಸ್ಮಾಲ್ ವಿಕ್ಟ್ರೀಸ್ ಓವರ್ ದ ಸೆನ್ಸ್ ಆರ್ಗನ್ಸ್, ವಿ ಆಲ್ವೇಸ್ ಗೆಟ್ ಸೋ ಹ್ಯಾಪಿ ವಿತ್ ದಟ್ ವಿ ಥಿಂಕ್ ವಿ ಹ್ಯಾವ್ ಆಲ್ರೆಡಿ ಅಟೈನ್ ದ ಸ್ಥಿತ ಪ್ರಜ್ಞತ ದಟ್ ಸ್ಟೇಟ್. ಬಟ್ ಆಲ್ ದೀಸ್ ಆರ್ ಬೀಂಗ್ ಟೋಲ್ಡ್ ಬಿಕಾಸ್ ದಿಸ್ ಇಸ್ ದ ಬೆಂಚ್ ಮಾರ್ಕ್ ವೇರ್ ವಿ ಹ್ಯಾವ್ ಟು ಗೋ. ವಿಚ್ ಇಸ್ ವೈ ಅಗ್ರೇ ಸಹ ವದತಿ, ಪ್ರಸಾದೇ ಸರ್ವ ದುಃಖಾನಾಂ ಹಾನಿರಸ್ಯೋಪಜಾಯತೆ ಪ್ರಸನ್ನ ಚೇತಸೋ ಹ್ಯಾಶು ಬುದ್ಧಿ ಪರ್ಯವತಿಷ್ಠತೆ. ಶ್ಲೋಕಂ ದ್ವಿವಾರಂ ಪಠಂತು. ಕರ್ತೃಕರ್ಮ ಕ್ರಿಯಾನ್ವೇಷಣಂ ಕುರ್ಮಃ. ಕರ್ತೃಪದಂ ಕಿಂಚಿತ್ ಗುಪ್ತರೀತ್ಯಾ ಹಿಡನ್ ಅಸ್ತಿ ಮಧ್ಯೆ ಪದ ಮಧ್ಯೆ. ಅಂಡ್ ಉಪಜಾಯತೆ, ವೆರಿ ಗುಡ್. ಕಿಂ ಉಪಜಾಯತೆ, ಕಸ್ಯ ಉಪಜಾಯತೆ. ಹಾನಿಹಿ, ಕಸ್ಯ ಹಾನಿಹಿ, ಕೇಶಾಂ ಹಾನಿಹಿ, ಸರ್ವ ದುಃಖಾನಾಂ ಹಾನಿಹಿ. ಪ್ರಸನ್ನ ಚೇತಸಃ, ಪ್ರಸನ್ನ ಚೇತಸಃ ಅಸ್ಯ, ಕರೆಕ್ಟ್. ಪ್ರಸನ್ನ ಚೇತಸಃ ಷಷ್ಠಿ ಭಕ್ತಿ ಸಂಬಂಧಕಾರಕಂ ಅಸ್ತಿ, ಬಟ್ ಸ್ಟಿಲ್ ದಟ್ ಇಸ್ ದ ಕರ್ತೃಪದಂ. ಏವಂ ಷಷ್ಠಿ ಭಕ್ತಿ, ಪ್ರಸನ್ನ ಚೇತಸಃ ಅಸ್ಯ ಪುರುಷಸ್ಯ ಡ್ಯಾಶ್ ಉಪಜಾಯತೆ, ಸರ್ವ ದುಃಖಾನಾಂ ಹಾನಿಹಿ ಉಪಜಾಯತೆ. ಸರ್ವ ದುಃಖಾನಾಂ ಹಾನಿಹಿ ಉಪಜಾಯತೆ. ಅನಂತರಂ ಕಿಂ ಭವತಿ, ದೇರ್ ಇಸ್ ಒನ್ ಮೋರ್ ಸೆಂಟೆನ್ಸ್, ಟೂ ಸೆಂಟೆನ್ಸ್ ಕ್ಯಾನ್ ಬಿ ಫಾರ್ಮ್ಡ್. ದ್ವಿತೀಯ ವಾಕ್ಯಂ ಕಿಂ, ಪ್ರಸನ್ನ ಚೇತಸಃ ಅಸ್ಯ ಸ್ಥಿತಪ್ರಜ್ಞ ಪುರುಷಸ್ಯ ಡ್ಯಾಶ್ ಡ್ಯಾಶ್. ಫಸ್ಟ್ ಇಸ್ ಸರ್ವ ದುಃಖಾನಾಂ ಹಾನಿಹಿ ಉಪಜಾಯತೆ, ಅನಂತರಂ second vakyam can be done, because again this is again the linked sentence. Paryavatishtate, paryavatishtate ha ka paryavatishtate, whatever. Buddhihi paryavatishtate, very good, excellent. Evam two this thing. So let us see the again, like dhyayatah, if we take this vidheyatma, first he is controlling. How is controlling? Atmavashyehi ragadveshavyuktaihi he controls. Saha vishayan charati tada kim bhavati prasadam adigacchati. He reaches the state of tranquility. Once he reaches the state of tranquility, a placidity of mind, kim bhavati, in that anandam, we have seen that when the greatest of ananda, when somebody has realized the greatest of ananda, we took the example also in the previous classes, when we said when somebody has had the best of badam alwa, best of sweets, any other ordinary sweet when anybody gives, we are not able to appreciate it. For example, the Tirupati prasadam is there, the best of the ladu, because of the Bhagavat prasada, that kind of the ananda what we get by sevanam of that Bhagavat prasada, we do not get in any other laukika this thing. So what happens with that kind of thing, all the other actions become very trivial, all the other materialistic objects become trivial. When they become trivial, any sorrow caused out of it will also stop. Evam, once he is in that level of tranquility, placidity of mind, all the other sorrows which are there, that come to an end. Tesham hanihi, hanihi tyukte nashah, kshayah, nashah bhavati, sarva dukkhanam hanihi bhavati. ప్రసాదె సర్వదుఖానాం హానిహి భవతి అనంతరం ప్రసన్న చేతసః సస్య బుద్ధిహి పర్యవతిష్ఠతే. హిస్ బుద్ధి గెట్స్ ఫర్మ్లీ ఎస్టాబ్లిష్డ్ ఇన్ ద పరమాత్మ పరవాసుదేవోపరి అస్య బుద్ధిహి పర్యవతిష్ఠతే పరి అవతిష్ఠతే. వి విల్ సీ దట్ పరి ఆసమంతాత్ తత్ర పరి అవతిష్ఠతే తత్ర స్థిరతయా భవతి స్థిరా భవతి బుద్ధిహి ఇతి తత్ర ద్రష్టుం శక్యతే. ఎక్సలెంట్. టూ సెంటెన్సెస్ కెన్ బి మేడ్. వాక్యద్వయం కర్తుం శక్యతే. ఓకే, పదచ్ఛేదః ఏకవారం పశ్యామః. ప్రసాదే సర్వదుఃఖానాం హానిః అస్య ఉపజాయతే ప్రసన్న చేతసః హి ఆశు బుద్ధిః పర్యవతిష్ఠతే. ప్రసాదే ప్రసాదే చిత్త నైర్మల్యే పరమానందే పరమానంద అవస్థాయాం. చిత్త నైర్మల్య టోటలీ ప్యూర్ మైండ్, నో షేకింగ్ డ్యూ టు ఎనీ పొల్యూషన్ ఆఫ్ రాగ ద్వేష ఇత్యాదికం పొల్యూషన్ నాస్తి. తత్ర చిత్తం తావత్ నిర్మలతయా భవతి, నిశ్చలతయా భవతి, తత్ర నిర్లేపతయా భవతి, నిరహంకారతయా భవతి, నిర్మోహతయా భవతి. ఏవం తాదృశ చిత్త నైర్మల్య అవస్థాయాం, దట్ ఇస్ ప్రసాదే ప్రసాదే ఇన్ ట్రాంక్విలిటీ, ఎక్స్ట్రీమ్ ట్రాంక్విలిటీ, ఎక్స్ట్రీమ్ బ్లిస్ అవస్థాయాం. అస్య పురుషస్య అస్య కస్య సాధకస్య పురుషస్య స్థితప్రజ్ఞస్య సర్వదుఃఖానాం. వాట్ ఈస్ ద మీనింగ్ ఆఫ్ సర్వదుఃఖానాం? హౌ మెనీ దుఃఖాస్ ఆర్ దేర్? మెనీ దుఃఖాస్ ఆర్ దేర్, బట్ స్టిల్ వీ కెన్ క్లాసిఫై ఇట్ ఇన్ టు త్రీ టైప్స్ ఆఫ్ దుఃఖాస్. విచ్ ఆర్ ద త్రీ టైప్స్ ఆఫ్ దుఃఖాస్? వెన్ వీఆర్ డూయింగ్ సంకల్ప ఆఫ్ బిగ్ పూజాస్ ఆల్సో వీ టెల్ దిస్. అస్మాకం సర్వేషాం ఆధ్యాత్మిక ఆదిదైవిక ఆదిభౌతిక ఇత్యాది నవనవజనిత తాపత్రయాణం విముక్తి భూయాత్. వెన్ వీ ప్రే టు ద ఆల్ మైటీ ఆల్సో వీ ప్రే దట్ ఆధ్యాత్మిక ఆల్ దోస్ విచ్ ఆర్ అరైజింగ్ ఫ్రమ్ ఎనీ బాడీలీ ఆర్ మెంటల్ సిచ్యువేషన్స్, ఆధ్యాత్మిక ఆది ఆత్మిక ఆత్మిక రీత్యా యది భవతి, ఆది దైవిక దైవిక తత్ర ఎక్స్టర్నల్ దైవ బై డెస్టినీ ఫేట్ యదస్తి తాదృశతయా యద్ భవతి. ఆది దైవిక పూర్వార్జితం భవతి, పూర్వజన్మార్జితం భవతి, తత్ర యత్ అస్మాభిః పూర్వకృత రీత్యా నోచేత్ దైవరీత్యా యత్ అస్మాభిః గ్రహరీత్యా గ్రహచార రీత్యా నోచేత్ విధిరీత్యా యత్ లిఖితం తత్ ఆది దైవిక. నెక్స్ట్ ఇస్ ఆది భౌతిక. ఆది భౌతిక విచ్ ఇస్ బీయింగ్ క్రాస్డ్ బై ఎక్స్టర్నల్ భూతాస్, భూత లివింగ్ నాన్ లివింగ్ లివింగ్ ఆబ్జెక్ట్స్ అనిమల్స్ అదర్ పూర్ పీపుల్ ఆల్ దీస్ అది యత్ ఆది భౌతిక యదస్తి. ఆది ఆత్మిక, ఆది దైవిక, ఆది భౌతిక. ఏవం యత్ యత్ దుఃఖం భవతి ఆది వ్యాధి. ఆల్సో వి నో ద డిఫరెన్స్ బిట్వీన్ ఆది అండ్ వ్యాధి. వి షుడ్ నో ద డిఫరెన్స్. వ్యాధి ఇత్యుక్తే డిజీస్. యత్ అస్మాభిః తత్ర డయాగ్నోస్టిక్స్ కృత్వా తత్ర అస్మాభిః వక్తుం శక్యతే ఏతత్ అస్తి కఫ అస్తి శ్లేష్మ అస్తి తత్ ఏతత్ బుద్ధిభ్రమణమస్తి ఏతత్ సర్వం వక్తుం శక్యతే. తత్ వ్యాధి పరం ఆది యదస్తి ఆది వ్యాధి హరం నృణాం. తత్ర బోత్ ఆది అండ్ వ్యాధి షుడ్ బి రిమూవ్డ్. వ్యాధి ఇస్ ఆల్ ద బాడీలీ డిసీజెస్ ఎక్స్టర్నల్, ఆది ఇస్ ఆల్ ద ఇంటర్నల్ డిస్టర్బెన్సెస్, మైండ్ రిలేటెడ్ డిస్టర్బెన్సెస్, మైండ్ రిలేటెడ్ సాధన హానికర డిస్టర్బెన్సెస్ విచ్ ఆర్ దేర్, దోస్ షుడ్ ఆల్సో బి రిమూవ్డ్. ఆల్ ద భిషజ్ విచ్ ఆర్ దేర్ దే కెన్ ఓన్లీ రిమూవ్ ద వ్యాధి పార్ట్ ఆఫ్ ఇట్. పరం ఇఫ్ ఆది హ్యాస్ టు బి రిమూవ్డ్ ఓన్లీ ద పరమాత్మ ధ్యాన సత్సంగ ఓన్లీ కెన్ లీడ్ అస్ టు దట్. ఆది వ్యాధి హరం నృణాం కహ కహ హరతి పరమాత్మ పరవాసుదేవ ఏవ ఆది వ్యాధి హరః భవతి. ఏవం సర్వదుఃఖానాం రెఫర్స్ టు ఆధ్యాత్మిక ఆదిదైవిక ఆదిభౌతిక ఇంటర్నల్ ఎక్స్టర్నల్ ఆల్ కైండ్స్ ఆఫ్ సారోస్. ఈవెన్ ఎనీ మెంటల్ సారోస్ షుడ్ నాట్ బి దేర్ బికాస్ లాట్ ఆఫ్ పీపుల్ విల్ బి స్మైలింగ్ అవుట్ సైడ్ బట్ అంతే తత్ర దుఃఖం భవతి. దే విల్ హ్యావ్ సమ్ డిప్రెషన్, కాస్ ఆఫ్ డిప్రెషన్ ఇత్యాదికం సర్వం భవతి. బట్ వెన్ దే ఆర్ ఫుల్లీ డిటాచ్డ్ అండ్ ఇన్ ద ప్రసాద అవస్థాయాం సర్వదుఃఖానాం హానిః. వెరీ వెరీ ఇంపార్టెంట్ వర్డ్ విచ్ హీ డిడ్ నాట్ విచ్ ఇస్ వై హీ డిడ్ సే ప్రసాదే అస్య దుఃఖానాం హానిః. సర్వదుఃఖానాం ఇంటర్నల్ ఎక్స్టర్నల్ ఆల్ టైప్స్ ఆల్ కాజెస్ ఆల్ ఫ్రమ్ ఆల్ సోర్సెస్ యదపి అస్తి సర్వదుఃఖానాం హానిః ఉపజాయతే. వన్స్ దట్ హ్యాపన్స్ ఉపజాయతే తత్ భవతి అనంతరం ప్రసన్న చేతసః. వన్స్ హీ ఇస్ ఫ్రీ ఫ్రమ్ ఆల్ దిస్ వాట్ హ్యాపన్స్ నాచురలీ హిస్ మైండ్ బుద్ధి యదస్తి ఆశు ఆశు ఝటితి సద్యః క్షిప్రం శీఘ్రం ఇమీడియట్లీ పర్యవతిష్టతే పర్యవతిష్టతే నిశ్చలా భవతి అతీవ నిశ్చలతయా భవతి అస్య మనః నిశ్చలం భవతి. తర్హి కుత్ర భవతి కుత్ర నిశ్చలం భవతి పరమాత్మోపరి పరమాత్మని నిశ్చలరీత్యా స్థిరా భవతి. సో హీ సేస్ దిస్. సో this is again the positive cycle. Prasanna chetasa prasadam adigacchati, prasade sarva dukkhanam hari bhavati, prasanna chetasah buddhihi paryavatishtate. Ekvaram pashyamah, prasade chitta nairmalye ativa prasada santushti ativa ananda athayam sya sadakasya sita prajnasya sarva dukkhanam sakalavida vishadanam hanihi sambhavati upajayate adhyatmika adidevika adibhautika ityadi navanavajarita tapatraya muktihi cha bhavati sarva dukkhanam nashah upajayate apicha prasanna chetasah swasthantahkaranasya swasthantahkaranah swasthyam health. Shankaracharya is using this word. He is saying prasanna chetasaha. For that word prasanna chetasaha, he is giving the word swasthantahkaranasya. Yasya swastha antahkaranam. Not only the physical health, the mental health also yadbhavati. Swasthantahkaranasya nirmala chitasya tadrsha purushasya buddhihi. Buddhihi yadasti tat shigram ashu sadyaha immediately paryavatishtate akashamiva parisamantat avatishtate atmaswarupena eva tatra nischali bhavati ityarthaha. Shankara bhashyam atmaswarupena eva atmani eva atmana tushtaha. Finally he comes back to that only. The first definition where we started, buddhihi ashu paryavatishtate. The same thing is that atmani eva atmana tushtaha bhavati nischali bhavati sadrashaha eva sitapragnyaha iti. So he is completing that cycle through this. ఏకవారం పశ్యామః ప్రసాదే సప్తమి ఏకవచనం అస్య ఇదం షష్ఠీ భక్తి ఏకవచనం అస్య ఏతస్య ఇట్ ఇస్ గివెన్ అస్ బహువచనం ఇట్ షుడ్ బి ఏకవచనం సర్వ దుఃఖానాం ఇస్ బహువచనం హానిహి ప్రథమైకవచనం ఉపజాయతే ఉప ప్లస్ జని ప్రాదుర్భావే తత్ర లట్ ప్రథమ పురుష ఏకవచనం ఆత్మనేపద్యాం భవతి జాయతే జాయేతే జాయంతే ఉప ఉపసర్గపూర్వక జని ప్రాదుర్భావే ధాతుః ప్రసన్నచేతః ప్రసన్నచేతస్ శబ్ద చేతాః ప్రసన్నచేతాః ప్రసన్నచేతసౌ ప్రసన్నచేతసః ఇతి గచ్చతి తత్ర షట్టీ భక్తి ఏకవచనం ప్రసన్నచేతసః హి అవ్యయం బుద్ధిః మనః స్త్రీలింగ ప్రథమ ఏకవచనం బుద్ధిః ఆశు ఆశు అవ్యయం సద్యః జటితి ఇమీడియట్లీ క్షిప్ర ప్రసాదిని సద్యః ప్రసాదిని ఇతి భవతి కిల ఆశుతోషి ఆశుతోషి భగవన్ మహేశ ఆశు ఇమీడియట్లీ శీఘ్రం పర్యవతిష్టతే పరి ఉపసర్గపూర్వక అవ ఉపసర్గపూర్వక పరి అవ ఉపసర్గద్వయపూర్వక ష్ఠా గతి నివృత్తౌ స్థాధాతోః అనిట్ ప్రయోగ పరస్మైపది బాధిగణీయ లట్లకార ఆత్మనేపది అత్ర ఆత్మనేపద్యాం భవతి పర్యవతిష్టతే తిష్టతే తిష్టేతే తిష్టంతే తిష్టసే తిష్టేతే తిష్టద్వే తిష్టే తిష్టావహే తిష్టామహే అవ ఇతి ఉపసర్గస్య యోగేన ఆత్మనేపద్యాం భవతి నో చేత్ స్థాధాతుః పరస్మైపది ఏవ భవతి పరం అవ అవతిష్టతే ఉపాన్వధ్యాం వసః నైవ సూత్రం విస్మృతం సూత్రం అనంతరం వదామి అవ ఇతి ఉపసర్గస్య యోగేన ఆత్మనేపది భవతి స్థాధాతోః అవ అవ I don't remember the sutra for this. Ava, because of the usage of ava, sthadhatu is taking the atmanepadi. It has become avatishtate, avatishtete, avatishtante, avatishtase, avatishtete, avatishtadve, avatishte, avatishtamahe, avatishtamahe. Evam laklakar tishtate, atomvrusha ekavachanam. Pashyamaha, in tranquility all sorrow is destroyed. For that intellect of him who is tranquil minded, soon established in firmness, nischala bhagavati nischala bhavati, nischala bhavati, nischala kutra nischala bhavati, bhagavati paramatmani nischala bhavati, paravasudeve, vasa shabda, again, vasu achhadane, yaha sarvatra vyaptaha asti, vishvam, yaha vishvam vishnur vashatkaraha ityasti, which is why even the Vishnu Sahasranama starts with vishvam. విష తత్ర వ్యాపనం సర్వత్ర ఈశావాస్యమిదం సర్వం ఇతి ఉపనిషదేపి ఉక్తమస్తి ఏవం తత్ర స్వీకర్తవ్యం భగవతి పరమాత్మని పరవాసుదేవే నిశ్చలా భవతి తాదృశ బుద్ధిః నిశ్చలా భవతి హానిరస్య హానిః అస్య విసర్గరేఫ అస్య ఉపజాయతే అస్యోపజాయతే గుణ అనంతరం ప్రసన్న చేతసో హ్యాషు చేతసో విసర్గరేఫ ఉకార గుణ హ్యాషు హి అషు యణ్ సంధి ప్రసన్న చేతసః ప్రసన్నం చేతః యస్య సః తస్య ప్రసన్న చేత తస్య ప్రసన్న చేతసః బహువ్రీహి సమాసః ఏవం అస్మాభిః దృష్టమస్తి ఏకవారం తత్ర శ్లోకద్వయమపి వదామః తత్ర పశ్యామః ರಾಗದ್ವೇಷವಿಯುಕ್ತೈಸ್ತು ವಿಷಯಾನಿಂದ್ರಿಯೈಶ್ಚರನ್ ಆತ್ಮವಶ್ಯೈರ್ವಿಧೇಯಾತ್ಮ ಪ್ರಸಾದಮಧಿಗಚ್ಛತಿ ಪ್ರಸಾದೇ ಸರ್ವದುಃಖಾನಾಂ ಹಾನಿರಸ್ಯೋಪಜಾಯತೆ ಪ್ರಸನ್ನಚೇತಸೋ ಹ್ಯಾಶು ಬುದ್ಧಿಃ ಪರ್ಯವತಿಷ್ಠತೆ. ಯತ್ರ ಯೋಗೇಶ್ವರಃ ಕೃಷ್ಣೋ ಯತ್ರ ಪಾರ್ಥೋ ಧನುರ್ಧರಃ ತತ್ರ ಶ್ರೀವಿಜಯೋ ಭೂತಿರ್ಧ್ರುವಾನೀತಿರ್ಮತಿರ್ಮಮ ಗುರುರೇವ ಗತಿಃ ಗುರುಮೇವ ಭಜೇ ಗುರುನೈವ ಸಹಾಸ್ಮಿನಮೋ ಗುರವೇ ನ ಗುರೋ